पश्यतु पश्यतु, प्रथमं प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः, एकवचनं, द्विवचनं, बहुवचनं. सामान्यतया सर्वे जानन्ति, यु हेड् यु हेड् स्टडीड् इन् स्कूल् आल्सो. एतत् एव फार्मेट् इति. भू इति धातुः, किमर्थं भू धातुः ब इति आगच्छति तत्सर्वम् अनन्तरं पश्यामः. तत् गणः इति अस्ति, तत्र दशगणाः सन्ति, 10 ग्रूप्स् आफ् धातुः. तत् अनुसारेण सर्वं किं भेदः भवति. ऊ आगच्छति चेत् सन्धि, पुनः व ऊ आगच्छति चेत् व इति एकः प्रकारः अस्ति. अनन्तरं पश्यामः तत् सर्वम्. इदानीं भू धातुः लट् लकारे प्रसेण्ट् टेन्स्, लट् लकारः इति वदामः चेत् वर्तमानकालः इति अवगच्छतु. अग्रे यदा गच्छामः तदा वयं कालः न वदामः, केवलं लकारः लकारः इति एव वदामः. लकारः मीन्स् टेन्स्, दट्स् आल्. लट् प्रसेण्ट् इति अहं वदामि. अनुवदतु भवति, भवतः, भवन्ति, अनुवदन्तु सर्वे.
भवतः, भवन्ति, भवतः,
न अहं वदामि, अनुवद. एकनिमिषम् एकनिमिषं कौशल्या भगिनी वदति वा?
अस्तु, एकवारं वा द्विवारं वा भगिनि?
हा, भवती एकवारं वदतु, अन्ये अनुवदन्तु.
एकवारं
आफ्टर् कौशल्या भगिनी, यु आल् रिपीट्.
भवति, भवतः, भवन्ति,
भवति, भवतः, भवन्ति,
भवन्ति,
भवसि, भवतः, भवथ,
भवति, भवतः, भवतः,
भवामि, भवावः, भवामः,
भवामि,
भवामः,
भवामः.
इतोपि एकवारं.
भवति, भवतः, भवन्ति,
भवति, भवतः, भवन्ति,
भवसि, भवतः, भवथ,
भवसि,
भवतः,
भवतः,
भवन्तः,
भवामि, भवावः, भवामः,
भवामि,
भवावः, भवामि, भवावः, भवामः.
अस्तु, पश्यतु, यु ट्रै टु मेमरैस् दिस्. के के जानन्ति अहं चिन्तयामि पूर्वम् एव, सर्वे जानन्ति वा? यु आल् नो दिस् फ्रम् इट्?
जानन्ति,
किञ्चित् जानामि
भगिनी. चिन्ता मास्तु, इदानीं वयं पठामः. अहम् एक अभ्यासं कारयामि. अहम् एक चित्रं प्रेषितवती खलु, वन् पेपर्, तत् अहं पुनः प्रेषयामि. ऐ हेव् अ फ्रेश् कापि आफ् इट्, ब्रैट् वन्. तत्र किं किम् अस्ति, पठति, गच्छति, खादति, लिखति इति अस्ति खलु. तत्र एतस्मिन् सप्ताहे यु टेक् फस्ट् 10 वर्ड्स्, खादति, लिखति, पिबति, एनि 10 वर्ड्स् इन् द फस्ट् थिङ्ग् एण्ड् ट्रै टु रैट् इट् इन् द सेम् वे. उदाहरणार्थं लिखति, लिखतः, लिखन्ति, लिखसि, लिखतः, लिखत, लिखामि, लिखावः, लिखावः इति एवम् अभ्यासं कुर्वन्तु. एक क्रियापदं स्वीकरोतु, तत् क्रियापदम् एवमेव कुर्वन्तु. सो एवं कुर्वन्ति चेत् तत् फार्मेट् कथमिति जानाति. अस्तु वा, तत् कुर्वन्तु एतस्मिन् सप्ताहे. लट् लकारे, लट् लकारे कुर्मः. लैक् दट् एव्रि वीक् वी विल् डू वन् 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 फार्मेट्. लङ् लकारः, भूतकालः. सो इफ् यु डू इट् लैक् दट्, किमर्थम् एतत् इदानीम् आवश्यकम् इत्युक्ते, यदा वयं विभक्ति पठामः तदा यु के नाट् आल्वेस् से दट् अहं गच्छामि, अहं लिखामि इति. भिन्नभिन्नकालः, भिन्नभिन्न पुरुषाः अपि आगच्छति. अतः एव एतत् प्रथमं किञ्चित् अभ्यासं कृत्वा विभक्तिं प्रति गच्छामः. अस्तु वा?
अस्तु भगिनि.
अनन्तरम् इदानीं प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः विषये किमपि सन्देहाः सन्ति वा? एनी डौट्?
न भगिनि.
के काचन भगिन्याः पूर्वमेव जानन्ति, सम् भगिनीस् नो देट् आल्रेडि, बट् हू एवर् हेस् नाट् नोन् ऐ वाण्ट् टु गेट् इट् फ्रम् देम्. पुनः वदामि वा, आवश्यकं वा?
प्रथमपुरुष मीन्स् थर्ड्
करेक्ट्. मध्यम इस् सेकेण्ड् पर्सन्.
सेकेण्ड् पर्सन् मीन्स् यू बोत् एण्ड् यू आल्. एण्ड् उत्तम पुरुष फार् अवर् सेल्फ् मै सेल्फ्.
यस्. इन् इङ्ग्लीष् इट् इस् उल्टा. इन् इङ्ग्लीष् उत्तम पुरुषः विद् बी द फस्ट् पर्सन्. ऐ मै सेल्फ् इस् द फस्ट् पर्सन्. And Pratama Purushaha will be as third person. But here in Bharatiya Samskriti Madhye, Vayam Sarve, Anyesham Krite Adhikam Gauravam Dadmaha. Atah Pratama Purushaha iti Vayam third person Angila Vashaya. Atara Pratamaha iti Artha. Astuva? Anantaram, Aham Gata Saptahe Api Uptavati. प्रथमपुरुषः मध्ये सर्वम् आगच्छति, नामपदं वा किमपि वा, नरः, वृक्षः, बालिका, पुत्रः, सर्वे प्रथमपुरुषाः एव. सः, तौ, ते सर्वे प्रथमपुरुषाः एव. मध्यमपुरुषः मध्ये यदा त्वं, युवां, यूयम् अथवा भवान् भवति इति आगच्छति तदा मात्रं मध्यमपुरुषः वाक्यम् उपयोगं कुर्मः. फार् एक्साम्पल्, भवान् वदसि अथवा त्वं वदसि इति अहं वदामि. बट् यदा अहम् अन्यविषयं वदामि तदा अहं त्वं, यू इति न वदामि. समानम् उत्तमपुरुषः मध्ये अपि नामं सङ्गीता गच्छति इति एव आगच्छति. अहं सङ्गीता अस्मि इति आगच्छति. सङ्गीता अस्मि, अहं श्वः लेखिष्यामि इति यदा अहम् इति पदम् अहम्, आवां, वयम् इति आगच्छति तदा मात्रं थर्ड् लैन् उपयोगं कुर्मः. समानं यदा त्वं, युवां, यूयं, त्वम् एकवचनं, युवां द्विवचनं, यूयं बहुवचनं, तदा मात्रं मध्यमपुरुषः उपयोगं कुर्मः. अन्यत् सर्वदा वेन् वि टाक् अबौट् आल् अदर् थिङ्ग्स् सर्वदा प्रथमपुरुषः एव उपयोगं कुर्मः. तत्र सन्देहमस्ति वा?
नास्ति भगिनि.
सम्यक्. अनन्तरं एतत् अभ्यासः कृतवन्तः खलु, बालकः, बालकौ, बालकाः, पुल्लिङ्गशब्दः, बालकः, बालकौ, बालकाः, स्त्रीलिङ्गमध्ये बालिका, बालिके, बालिकाः. अनन्तरं नपुंसकलिङ्गं पुस्तकं, पुस्तके, पुस्तकानि. तत् सर्वे स्मरति वा, स्मरन्ति वा?
आं भगिनि.
इदानीम् अहम् एक वाक्यं प्रथमपुरुष एकवचने वदामि, सर्वे अन्य अन्य अहं किं किं पृच्छामि तत् वक्तव्यम्. अस्तु वा? लक्ष्मी भगिनी, बालिका गच्छति बहुवचनम्. बालिका गच्छति, केन् यू ट्रान्स्लेट् इन्टु बहुवचनं, चेञ्ज् इन्टु बहुवचनं?
आह
अस्तु पारुल् भगिनी प्रयत्नं करोति वा बालिका गच्छति बहुवचनं
बालिकाः गच्छन्ति
कौशल्या भगिनी बालिका गच्छति मध्यमपुरुषः एकवचनं
बालिका गच्छसि
मध्यमपुरुषः एकवचनं त्वं गच्छसि विजया भगिनी अहम् उपविशामि केन् यू चेञ्ज् इन् टु प्रथमपुरुषः द्विवचनं प्रथमपुरुषः द्विवचनं
ते उपविशतः
यदा अहं किं लिङ्गम् इति न उक्तवती अतः अस्तु ते गच्छतः स्त्रीलिङ्गं द्विवचनं तौ गच्छतः पुल्लिङ्गद्विवचनं सिन्स् ऐ हव् नाट् टोल्ड् विच् लिङ्गं सो इट् इस् ओके ते गच्छतः अनुभगिनी अहं पश्यामि मध्यमपुरुषः बहुवचनं
यूयं
यूयं पश्यत सम्यक् श्रुतया भगिनी पुरुषः खादति उत्तमपुरुषः द्विवचनं
अहं आवाम् आवाम् खादावः
आवां खादावः
खादावः
रमा भगिनी बालिका नृत्यति उत्तमपुरुषः बहुवचनं
वयं
सुजया भगिनी म्यूट् कुर्वन्तु
वयं नृत्यतः
न न उत्तमपुरुषः बहुवचनं
वयं उत्तमपुरुष बहुवचनं वयं नृत्यामः
आं सम्यक् वयं नृत्यामः मद्रिका भगिनी शृणोतु न अवगच्छति चेत् अनन्तरं पृच्छतु लक्ष्मी भगिनी इदानीं वदति वा
No, ma'am, I cannot find my notes, so...
Okay, yeah. अत्र अहं स्क्रीन् शेरिङ्ग् करोमि खलु अत्र अस्ति सर्वं स्क्रीन् शेरिङ्ग् मध्ये अस्ति चिन्ता मास्तु शोभा भगिनी आवां पश्यावः प्रथमपुरुषः बहुवचनं आवां पश्यावः चेञ्ज् इन् टु प्रथमपुरुषः बहुवचनं शोभा भगिनी श्रूयते वा
आवां पश्यावः इत्युक्ते it will be pashyanti no prathama purusha bahuvachana pashyanti and one minute it will be I don't beginning I am not able to
te be te saha पुल्लिङ्गं ते पश्यन्ति अथवा ताः स्त्रीलिङ्गं चेत् ताः पश्यन्ति. पारुल् भगिनी एकवारम् अभ्यासं कारयति वा सः तौ ते सः तौ तौ ते सा ते ताः
तस्ते तानि
सर्वेषां कृते एकवारं कारयतु. पारुल् भगिनी वदति सर्वे अनुवदन्तु.
तौ ते
न एकवारम् एकनिमिषं तिष्ठतु. प्रथमं पारुल् भगिनी वदति एकवाक्यं सः ते ता सः तौ ते इति वदति. सर्वे अनुवदन्तु. अनन्तरं सा ते ताः इति एषा वदति. अनन्तरम् अनुवदतु. प्रथमं वारम् एषा पूर्णं वदति. पुनः एकवारम्
सः तौ ते
सः
सा ते ताः
सा ते
ताः तत् ते तानि
तत्
ते तानि
तानि.
सम्यक् धन्यवादः. पश्यतु इदानीम् एतत् अभ्यासं किम् इत्युक्ते एतत् प्रथमपुरुषस्य सर्वलिङ्गानि दट् इस् थर्ड् पर्सन्स् आल् लिङ्गं सः तौ ते पुरुषलिङ्ग एकवचन द्विवचन बहुवचनम्. अनन्तरं सा ते ताः स्त्रीलिङ्ग एकवचन द्विवचन बहुवचनं. तत् ते तानि नपुंसकलिङ्गस्य एकवचन द्विवचन बहुवचनम्. यदा अहं बालिका गच्छति इति वदामि खलु तदा इर् आर् टु गर्ल्स् देन् बालिके इन् ते इति स्थाने बालिके गच्छतः इति वक्तव्यं. अनन्तरं प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः तत्रापि एक टेबल् अस्ति. एवमेव तत् तेर् वि टेक् ओन्ली पुल्लिङ्गशब्दः सः तौ ते त्वं युवां यूयम् अहम् आवां वयम् इन् देट् फार्मेट् वि डिड् लास्ट् वीक्. सुजया भगिनी अभ्यासं कारयति वा.
हा आं भगिनि.
हा सर्वे अनुवदन्तु
सः तौ ते.
आमाम् इदानीं वदतु
सः तौ ते
सः
तौ सः तौ ते
सा ते
न त्वं युवां प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः.
ओके ओके त्वं युवां त्वं युवां यूयं
त्वं युवां यूयं
अहम् आवां वयम्
अहम् आवां वयम् आवां वयं.
पुनः एकवारम्
सः तौ ते
सः तौ ते
त्वं युवां यूयम् अहम् आवां वयम्
अहम् आवां वयं
वयम्
एकनिमिषम् इदानीम् अवगतं वा? इफ् यु आर् कन्फ्यूसिङ्ग् बिट्वीन् दीस् टू टेबल्स् टेल् मी ऐ विल् करेक्ट् इट् नौ बिकास् दिस् इस् द बेसिक् वन्. ते न जानन्ति पूर्वं हू हेज़् नाट् नोयिङ्ग् अर्लियर् अण्ड् नौ यु केम् टु नो यु केन् टेल् मी वेदर् यु अण्डर्स्टुड् आर् नाट् अहं जानामि बहुजनाः पूर्वमेव जानन्ति इति मेनि पीपल् नो अर्लियर् बट् ऐ वाण्ट् टु नो फ्रोम् हू इफ् यु डिड् नाट् अण्डर्स्टाण्ड् टेल् मी ऐ एक्स्प्लेन् यु नौ ओन्ली अस्तु सर्वे अवगतवन्तः भगिनि न न इदानीं किमपि उक्तवती वदतु हा यु टेल् मी अगेन्
हा सारि ऐ जायिन्ड् अ लिटल् लेट् सो ऐ थिंक् ऐ मिस्ड् द फस्ट् पार्ट् आफ् द क्लास् बट् ऐ थिंक् ऐ अण्डर्स्टुड् दिस् नौ सो हर् डौट् ऐ इट् इस् क्लियर् टु मी नौ
ओके सि पश्यतु विषयद्वयमस्ति अत्र एकं तु ओन्लि प्रथमपुरुषः तत्र पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गशब्दः सः तौ ते सा ऐ हियर् लाट् आफ़् नाय्स् सम्बडि इस् मूविङ्ग् द वेसल्स् अरौण्ड् प्लीस् म्यूट् युवर् सेल्फ़् हा सः तौ ते सा ते ताः तत् ते तानि इट्स् आल् प्रथमपुरुषः थर्ड् पर्सन् in all lingam all gender and all vachana and this one second one first person second person third person sah tau te there we take always pullingam eva kim agachati predominant is pullingah atah we take that as example sah tau te iti बट् इट् इस् हिडन् सा ते ताः सर्वं हिडन् अस्ति अत्र प्रथमपुरुषः मध्यमपुरुषः त्वं युवां यूयम् उत्तमपुरुषः अहम् आवां वयम् ऐ थिङ्क् दिस् इस् क्लियर् अनन्तरं लट्लकारः अपि क्लियर् पठति पठतः पठन्ति पठसि पठतः पठत इति तत् क्लियर् इति अहं चिन्तयामि अस्तु वा अग्रे गच्छामः वा एतस्मिन् सप्ताहे गृहपाठनार्थं
भगिनि
भगिनि
यदि मालिका इति शब्दं प्रयोगं कुर्मः
भवति
तर्हि कथम् उक्तुं शक्नुमः सः तौ ते यदि बालिका शब्द
बालिका अस्ति खलु बालिका गच्छति एकवचनम् अत्र सा ते ताः इति अस्ति खलु बालिका इस् इक्वल् टु सा बालिके ते बालिकाः ताः
धन्यवादः
तत्र इतोपि एकविषयम् अहं वदामि मे बि इफ् यु गेट् कन्फ्यूस्ड् इफ् यु आर् क्लियर् देन् फैन् यदा पुल्लिङ्गशब्दे किम् आगच्छति सः तौ ते इति आगच्छति तत्र किं वदामः पुरुषः पुरुषौ पुरुषाः इति वदामः सामान्यतया बट् अत्र ते इति अस्ति तत् पुरुषाः नाट् लैक् स्त्रीलिङ्गशब्दः इट् इस् नाट् बालिकाः इट् सिम्पल् सा ते ताः इति बट् इन् पुल्लिङ्गशब्दः इट् इस् लिटिल् डिफ्रेण्ट् ते बालकाः दोस् बाय्स् इति आगच्छति ते बालकाः इति सो तत्र बालकाः इति एव शब्दं बालके इति न आगच्छति वेन् यु वाण्ट् टु से हा वेन् यु वाण्ट् टु से दोस् बाय्स् यु विल् यूस् ते बालकाः हा इति वदामः सो देर् इट् इस् नाट् ईक्वल् अस्तु तत्तेतानि मध्ये अपि समानम् अतः तत् अहं न वदामि अनन्तरं समानम् इदानीं वयं पूर्वं फस्ट् लेसन् वयं पठितवन्तः सः इत्युक्ते किम् एषः इत्युक्ते किम् इति स्मरन्ति वा वाट् इस् द डिफ्रेन्स् बिट्वीन् सः एषः सः फार् एषः इदानीं कोऽपि वदति वा ये वयम् इदानीं किम् उक्तवन्तः सः तौ ते समानं एषः उपयोगं कृत्वा कोऽपि जानाति वा वदति वा
अहं वदामि भगिनि.
वदतु भगिनि.
एषः, एतौ, एते, एषा, एते, एताः, एताः, एतत्, एते, एतानि.
सम्यक्, उत्तमम्. सम्यक् तावदेव. बहु सुलभम्. अभ्यासं कारयति वा एकवारम् अनुभगिनी? द्विवारं वदतु. एक लैन् वदतु, सर्वे अनुवदतु, अनन्तरं द्वितीयपक्षे वदतु.
एषः, एतौ, एते,
एषः, एते,
एषः, एषौ, एषे,
एषः, एतौ,
एतौ, तौ, ते, एषः, एतौ, एते,
एषः,
तौ, एते,
एषा,
एते,
एताः,
एषा, एते, एताः,
एषाः,
एतत्, एते, एतानि,
एतत्,
एते,
एतानि,
एते, एतानि,
एतानि.
इदानीम् अवगतं वा? मल्ली डिफ्रेन्सेस् ऐ केन् से एषा बालिका, सा वृद्धा. एषा बालिका, सा वृद्धा. एषा घटी, सा स्थालिका. एवम् अन्यत् प्रयोगं समानमेव. द टेबल् इस् सेम्. If you can find out a table, you can share in the group, or I will also check. If I get it, I'll share it in the group. Etat Prathamam Smarantu. Etasmin, we are in the second level, first level we did the course. In the second level, we have lot of this kind of sound. Shaptah. Evam eva patamah. Ekaha vadati, anyaha. एतत् श्रवणसंस्कारम् इति. एकः वदति, अन्यः अनुवदन्ति. अतः अहं भवन्तः मध्ये एव एकः वदति, भवती वदतु, वदतु इति वदामि. अतः सम्यक् भवन्तः श्रवणसंस्कारम् एवमेव वयं पठनीयम्. अत्र विभक्तिमध्ये विभक्तिविषयाः इदानीम् अहं प्रेषितवती गणे, एस् सि सि गणे अहं प्रेषितवती. किं किं शब्दाः वयम् उपयोगं कुर्मः इति. प्रथमशब्दं पश्यति चेत् रामशब्दः अत्र अस्ति. फस्ट् इफ् यु मेमरैस् द शब्दाः एण्ड् देन् गो अण्ड् रीड् इट्, सो इट् विल् बि वेरि ईज़ि फर् यू टु जस्ट् मेच् इट्. सर्वे पश्यति वा रामशब्दः अत्र अस्ति? प्रथमशब्दः रामशब्दः अस्ति. सर्वे कण्ठस्थीकरणं कृतवन्तः वा? यु आल् मेमरैस्ड्
रामशब्दं?
अन्यः? सर्वे कृतवन्तः वा? चिन्ता मास्तु. Even if you have not memorized, still we have time. You can memorize. Aham ekavaram Ramashaptam vadami va anuvadantu sarve. Athava bhavantah eva kopi vadati va? Kaha vadati? Shobha bhagini? Kantasti karnam kritavati va? Memorized? You can see this. Yeah.
Ramaha, Ramau, Ramaha.
Eka eka nisham. When we tell this, no, we will always start with अकारान्तः, पुल्लिङ्गः, रामशब्दः, बिकास् वि विल् हेव् अदर् सौण्ड् गुरु, सौकारान्तः इति. अतः यु स्टार्ट् वित् दट् फस्ट् लैन् इट् इस् गिवन् नु अकारान्तः.
इट् इस् गिवन् हियर्. ऐ डोण्ट् हेव् अ बुक् भगिनी.
नो नो नोट् बुक्. ऐ सेण्ट् इट् इन् वाट्सप् ग्रूप् नौ.
ओ ओ वन् मिनिट् लेट् मि सी. ओ सोरि सोरि, ऐ एम् नाट् लुकिङ्ग् अट् दट्.
नो प्रोब्लम्.
Thank you.
सो दीस् आर् द मेन् शब्दाः वयम् अत्र पठामः.
ओ यस् करेक्ट्. अकारान्त पुल्लिङ्ग रामशब्द. रामः रामौ रामाः.
चिन्ता मास्तु, अहं प्रथमम् अहं पाठयामि, पश्यतु कथम् इति, अनन्तरं भवती करोतु. सर्वे अनुवदन्तु. यु आल् हेव् टु रिपीट्. इफ् इट् इस् इफ् वन् इस् टेलिङ्ग् अदर्स् इट् इस् डिस्टर्बेन्स् फार् अदर्स् ऐ विल् म्यूट् आल् आफ़् यू. ओके अण्ड् ऐ विल् अन्म्यूट् वन्लि वन्. नौ ऐ हेव् अन्म्यूटेड् ओन्लि Shobha Bhagini. When I say, you repeat so that others will repeat along with Shobha Bhagini. Huh? Akarantah pullingah ramashabdah.
Akarantah pullingah ramashabdah.
Ramah ramau ramah.
Ramah ramau ramah.
He Rama he ramau he ramah.
हे राम हे रामौ हे रामाः.
रामं रामौ रामाण.
रामं रामौ रामान.
रामेण रामाभ्यां रामैः.
रामेण रामाभ्यां रामैः.
रामाय रामाभ्यां रामेभ्यः.
रामाय रामाभ्यां रामेभ्यः.
रामात् रामाभ्यां रामेभ्यः.
रामात् रामाभ्यां रामेभ्यः.
रामस्य रामयोः रामाणाम्.
रामस्य रामयोः रामाणाम्.
रामे रामयोः रामेषु.
रामे रामयोः रामेषु.
पुनः एकवारम् अकारान्तः पुल्लिङ्गः रामशब्दः.
अकारान्तः पुल्लिङ्गः रामशब्दः.
रामः रामौ रामाः.
रामः रामौ रामाः.
हे राम हे रामौ हे रामाः.
हे राम हे रामौ हे रामाः.
रामं रामौ रामान्.
रामं रामौ रामान्.
रामेण रामाभ्यां रामैः.
रामेण रामाभ्यां रामैः.
रामाय रामाभ्यां रामेभ्यः.
रामाय रामाभ्यां रामेभ्यः.
रामात् रामाभ्यां रामेभ्यः.
रामात् रामाभ्यां रामेभ्यः.
रामस्य रामयोः रामाणाम्.
रामस्य रामयोः रामाणाम्.
रामे रामयोः रामेषु.
रामे रामयोः रामेषु.
अस्तु, सर्वे अभ्यासं कृतवन्तः वा? आगामिसप्ताहे सीताशब्दं स्त्रीलिङ्गशब्दं सर्वे. अत्र रमा इति अस्ति, अहं प्रेषितवती खलु चित्रे, रमा इति अस्ति. किमपि रमा वा सीता वा किमपि कुर्वन्तु, समानार्थमेव एव. परन्तु एकम् अहं मम क्लिष्टः भवति, यदा अहं रमा रमा इति वदामि झटिति तत् रामा इति गच्छति. अतः अहं सर्वदा सीता इति एव अभ्यासम् अहं करोमि. भवतः किं सम्यक् अस्ति? बालिकापि शक्यते, बालिका बालिके बालिकाः इत्यपि. किमपि आकारान्तः स्त्रीलिङ्गशब्दः एकवारं पठित्वा आगच्छतु. एवं वयम् अभ्यासं रटनाभ्यासं, रटनाभ्यासं मीन्स् ग्रूप् प्राक्टिस्. एकवारम् एकैकस्य शब्दं कुर्मः चेत् पठनं सुलभं भवति. अस्तु वा? इदानीम् अहं विभक्तिपुस्तकं प्रति गच्छामः. पुस्तकं नास्ति चेत् अपि चिन्ता मास्तु, अत्र वयम् एव वाक्यं वदामः. शृण्वन्तु, यदा शक्यते तदा पुस्तकं स्वीकुर्वन्तु. अस्तु, इदानीं वयं प्रथमशब्दः दृष्टवन्तः.
सङ्गीता भगिनी, वन् वन् क्वशन् इफ् ऐ मे सर्.
नौ,
प्रीवियस्लि यु हेड् सेण्ट् अस् वन् टेबल् फार् अकारान्त पुल्लिङ्ग रामशब्द. तृतीय विभक्ति बहुवचन वाज गिवन एज रामौह
रामोह
and I studied it as that I oh. learned it as Ramo previously
okay.
the table but which was shown to us
Ramayana
I the same table which was shown before I'm just sending it now in the WhatsApp
but that is Ramayana you need to pronounce that Ramayana
yes So I was just confused because I okay. all the time I learnt it as Ramo.
Okay.
Yeah. I will correct it now. Rama is it.
Yeah. Atra. Atra Ram Shabda Harti. Idanim. Ekam aham vaktum ichami. If you don't know. Bhavantah jananti chet samye. द्वितीय पङ्क्ति अस्ति खलु हे राम हे रामो हे रामः वि विल् डिस्कस् देट् आल्सो एट् द एण्ड् बट् ऐ विल् जस्ट् टेल् यू इन् सम् प्लेसस् इट् इस् काल्ड् सम्बोधन विभक्ति इन् सम् प्लेसस् इट् विल् बि गिवन् इन् द सेकेण्ड् लैन् अलाङ्ग् वित् रामः रामौ रामाः इन् सेकेण्ड् लैन् हे राम हे रामो हे रामाः तत्रापि सम्यक् इन् सम् प्लेसस् स्क्रीन् मध्ये किम् अस्ति खलु तत्र अन्तिमे अस्ति सम्बोधन इति हे राम हे दट् तदपि सम्यक् बट् इन् जनरल् वेन् वि डु दिस् मिक्स्ड् अभ्यासः सः रटनाभ्यासः किं भवति इत्युक्ते सम्टैम्स् वि मैट् लीव् दिस् सम्बोधन अतः जनरलि इट् इस् अभ्यासः अस्ति द्वितीयपङ्क्तिमध्ये इन् द सेकेण्ड् लैन् इट्स् वि इन्क्लूड् दट् परन्तु एतत् द्वितीयाविभक्ति नास्ति द्वितीयाविभक्ति रामं रामौ रामान् एव द्वितीयाविभक्ति बट् वि जस्ट् प्राक्टीस् दट् हे राम हे रामो हे रामः इति एकः शब्दः एव तत्र किमपि अन्य सम्बोधनविभक्तिमध्ये किमपि नास्ति तदपि पठामः अनन्तरं तत् स्मरतु यदा द्वितीयाविभक्ति इति अहं वदामि डोण्ट् थिङ्क् दट् इट् इस् हे राम हे रामो इट् इस् रामं रामो रामान् एव अस्तु वा पुस्तकं के हस्ते अस्ति तत् पश्यतु प्रथमपङ्क्ति पुस्तकं जस्ट् टु एन् आर्गनैस्ड् वे वयं पूर्वमेव पठितवन्तः सो वी केन् जस्ट् फिनिश् इट् वेरि फास्ट्लि स्क्रीन् मात्रं पश्यतु अत्र जस्ट् फर् वाक्यरचना सेण्टेन्सस् ऐ विल् यूस् दिस् बुक् रामं रामौ रामान् प्रथमाविभक्तिमध्ये किमपि नास्ति खलु तत् वयं कृतवन्तः सः तौ ते सा ते ताः तत् सर्वं प्रथमाविभक्ति एव नामपदं प्रथमाविभक्ति त्वं वा अहं वा सङ्गीता वा बालिका वा वृद्धा वा तत्सर्वं प्रथमाविभक्ति प्रथमाविभक्ति इत्युक्ते नामपदम् इति अर्थः कर्तृ इति आगच्छति खलु कर्तृ प्रथमाविभक्त्या भवति अथवा तत्रापि विभक्तिपरिवर्तनम् अपि भविष्यति बट् as far as now you take it as first kartrupadam subject iti prathama vibhakti atah atra anya kimapi vishayah nasti vayam patitavantah last 2 weeks we have done abhyasa only with prathama vibhakti idanim dvitiya vibhakti pashyamah dvitiya vibhakti madhye dvitiya vibhakti namam eva karma padam iti asti karmam karmam titte kim karyam kimapi some work something is happening tat dvitiya vibhakti karma padam yada kimapi karmam prachalati then we use dvitiya vibhakti for example idanim aham vadami balakah asti atra kimapi karmam nasti he is there that's all pustakam asti atra there is no work going on it is just there so तत्र प्रथमाविभक्तिमात्रं पर्याप्तं बालकः अस्ति पुस्तकम् अत्र अस्ति तत्र अस्ति अन्यत्र अस्ति तत्र अस्ति इति पदम् आगच्छति चेत् तत्र किमपि कर्म न प्रचलति बट् इफ् ऐ डु सम् वर्क् अहं gachami, then I can ask a question. Kutra gachati, where are you going? There will be an answer if you write the question of what and where. When you get an answer, that is called karma padam. Huh? There are two. I will send a short note about this. In Sanskrit, in English also we have that. Transitive verb, intransitive verb. Kopi smaratiwa? Can someone tell in English only? What is transitive and intransitive?
When the verb can take an object, it is a transitive verb. When the verb cannot take an object, it's an intransitive verb.
Correct. Samyak. For example, if there is an answer for what and where, then it is a transitive verb. Balika hasati. There is a question. There is a sentence. Balika hasati. Can I ask kim hasati? I can ask what she loves for, but I cannot ask what. There is no answer for what. Where? Balika hasati. Where? That also there is no answer. Actually, the exact matching word is what. If I add one more word there, for example, Balakaha gachati. I can ask where he goes. Where? Then vidyalayam. Vidyalayam gachati. That is also, we just use it. Vidyalayam pratigachati. Indirectly, it is there. Towards school. Iti asti. Anantaram, balika likati. I can ask, kim likati? Patam likati. I can answer to that question. Aham pashyami. Kim pashyati? Duradarshanam pashyami. There is an answer. When you ask a kim, there is an answer for it. That is called dvithiya vibhakti. Karmam. Karyam karmam. If it is going, then it is called dvithiya vibhakti. Idanim aham kechana vakyani pata. Kanichana vakyani pata. We'll try to get answer from this. उदाहरणं पश्यतु बालकः पाठं पठति बालिका मालां रचयति गार्लेण्ड् शी मेक्स् अ गार्लेण्ड् सः फलं खादति तत्र पश्यतु बालकः पाठं पठति इति अस्ति परन्तु पाठं पाठः इति पुल्लिङ्गशब्दः यदा रामम् इति अस्ति पाठम् इति वयं वदामः इम् इति आगच्छति तत् बिन्दुविभक्ति इति अन्यनामः अस्ति बिन्दु इट्स् अ डाट् वेल्कम् एव्रिवेर् अनन्तरं बालिका मालां रचयति माला आकारान्तशब्दः मालां मालां रचयति इं रचयति अनन्तरं नपुंसकलिङ्गशब्दे सः फलं खादति इति अस्ति नपुंसकलिङ्गमध्ये इम् अस्ति पूर्वमेव अतः वयं किमपि न योजयामः जस्ट् वि लीव् इट् सो इन् नपुंसकलिङ्गं it comes as it is. No change in that. Astva. Idanim aham kanichana vakyani vadami. If you have a book, you can see and read. Otherwise, just listen to my sentence and make it. Etit sarva ramam ekavachanam matram. Anantaram bahu dvivachanam abhyasam kurmaha. Prathamam ekavachanasya abhyasam matram kurmaha. Rama bhagini. कर्मकरः डेश् सिञ्चति वृक्षः इति अस्ति कर्मकरः वृक्षः सिञ्चति द्विवचनं क्षम्यतां द्वितीयविभक्ति
कर्मकरं वृक्षं सिञ्चयति
सिञ्चति कर्मकरः एव तत्र कर्मकरः कर्मकरः एव
कर्मकरः वृक्षं सिञ्चति
सिञ्चति everything is same. Only vrikshaha will become vriksham. Dvitiyam, sajjanaha dash tatra dharmaha sajjanaha dharmaha palayati. Dvitiya vibhaktiya madato. Dharmaha iti vakya. Madhurika bhagini.
प्लीज रिपीट द सेंटेंस मैम
षड्जनः डैश पालयति धर्मः
षड्जनः धर्मं पालयति
हा सम्यक् अनुभगिनी अहं शृणोमि शब्दः शब्दः
अहं शब्दं शृणोमि
हा अत्र पश्यतु इदानीं वयम् अवगच्छामः किल वय सर्वदा शब्दम् आगच्छति इति वदामः परन्तु तत् द्वितीया विभक्ति वितौट् वि नो दट् इट् इस् अ द्वितीया विभक्ति वि यूस् दट् पाठः इति पुल्लिङ्गशब्दः परन्तु वयं सर्वदा पाठं पाठम् इति एव वदामः एवं बहु वेन् यु गो थ्रू दिस् यू विल् अण्डर्स्टाण्ड् द लिङ्गं वाट् लिङ्गं वि यूस् आल् द टैम् एण्ड् वाट् आक्चुलि इट् हेस् विजया भगिनी सा डैश् स्मरति इतिहासः
सा इतिहासं स्मरति
सम्यक् कौशल्या भगिनी ते डैश् गच्छन्ति विद्यालयः
ते विद्यालयं गच्छन्ति
पश्यतु अत्रापि ते विद्यालयं गच्छन्ति सम्यक् पुनः विद्यालयः एव तत् विद्यालयं नास्ति वयं सर्वदा विद्यालयं विद्यालयम् इति द्वितीय विभक्त्यां वदामः अनन्तरं ते गच्छन्ति इति अस्ति खलु तत् ते सब्जेक्ट् कर्तृपदं गच्छन्ति क्रियापदं कर्मपदं मध्ये एकवचनमेव अस्ति विद्यालयः एव अस्ति जस्ट् बिकास् गच्छन्ति ते अस्ति इति कारणात् बहुवचनं न आवश्यकम् अत्र ब्राकेट् मध्ये एकवचनमेव अस्ति सेविका का पारुल् भगिनी सेविका डेश् गच्छति आपणः
सेविका आपणं गच्छति गच्छन्ति
सेविका एकवचनमेव खलु
सेविका
गच्छति
आपणं गच्छति
गच्छति लक्ष्मी भगिनी स्वामिनी डैश् आह्वयति सेविका
स्वामिनी सेविकाम् आह्वयति
सम्यक् शोभा भगिनी जनकः डैश् पठति पत्रिका
जनकः पत्रिकां पठति
अनन्तरं पुनः सेकेण्ड् रौण्ड् अस्ति माता क्षम्यतां बालकः रमा भगिनी बालकः डैश् नमस्करोति जननी
पुनः एकवारं वदतु भगिनी
बालकः डैश् नमस्करोति जननी द्वितीया विभक्ति
बालकः जननी नमस्करोति
बालकः जननी नमस्करोति अत्र जननी इत्युक्ते अम्बा मदर् इति अर्थः अम्बा मीन्स् अम्मा अत्र एतत् ईकारान्तस्त्रीलिङ्ग इट् किञ्चित् मे बि इट् मैट् बि कन्फ्यूसिङ्ग् वि हव् नाट् इट् रेड् देट् ऐ विल् सेण्ड् देट् आल्सो फर् रेफरेन्स् गौरी आर् नदी शब्दः ऐ विल् सेण्ड् सर्च् गौरी आर् नदी ईकारान्तः शब्दः तत्र द्वितीया विभक्ति समानमेव जननी जननी इति आगच्छति परन्तु यदा द्विवचनं बहुवचनम् आगच्छति तत्र किञ्चित् भिन्नः भवति इट् बि लिटल् डिफ्रेण्ट् फ्रम् दिस् सो एकवारं किञ्चित् कालं किञ्चित् अभ्यासं प्रतिसप्ताहे एव्रि वीक् वेदो अभ्यासः तत् प्राक्टीस् आवश्यकं सो यु नीड् टु मेमरैस् इट् इन् बिट्वीन् you can just keep this I'll send it in whatsapp no just refer that and you can follow that ha idani all whatever is coming ikaranta shabdah agachati madhurika vagini mata dash bodayati
mata ikaranta
पुत्री पुत्री
माता I'm looking for the vibhaktis. I don't know the Rama Shabda.
Same thing, no? Putri, Janani Uttavati Kalo.
Okay. Mata Putrim Rodayati.
Yeah, now I'm sending the Gauri Shabda. Now only I'm sending, so that you can use it if it comes. I sent it.
Okay.
Ikaranta Shabda Havachati Chit, just refer the WhatsApp.
Okay. So, Mata Putrim Putrim What is the next? Bodayati.
Bodayati.
Okay.
Bodanam.
Okay.
Bodayati. Second page, Mudhiye. पश्यतु सेकेण्ड् पेज् रामः पाठं पठित्वा निद्रां करोति इति अस्ति यदा वयं त्वा प्रयोगं कृतवन्तः खलु स्मरन्ति वा सर्वे त्वा अहं गत्वा दूरदर्शनं पश्यामि अहं स्नानं कृत्वा भोजनं खादामि इति त्वा प्रयोगं पठितवन्तः खलु तत्र त्वा प्रयोगात् स्वप्रयोगात् पूर्वं सर्वदा द्वितीयाविभक्ति एतत् सर्वं रूल्स् कुत्र कुत्र आगच्छति इति स्वप्रयोगात् पूर्वं एकक्रियापदम् आगच्छति खलु तत् सर्वदा द्वितीयाविभक्तिमध्ये एव उदाहरणार्थम् अत्रापि अस्ति रामः पाठं पठित्वा निद्रां करोति पाठः एव अत्र अस्ति परन्तु पाठं पठित्वा किमर्थम् इत्युक्ते पठित्वा एकः कर्म पाठं पठति इति एव आगच्छति अतः पाठं पठित्वा निद्रां करोति हि रेड् अण्ड् स्लिप्ट् बालकः हस्तं प्रक्षाल्य भोजनं करोति हस्तः पुल्लिङ्गशब्दः परन्तु हस्तं प्रक्षाल्य अहं पूर्वमेव उक्तवती स्मरति वा प्रक्षालित्वा इति नास्ति प्रक्षाल्य इति एव शब्दः इट् इस् लिटल् डिफ्रेण्ट् त्वा प्रयोगे ल्यप् इति ल्यप् बन्धः एतत् त्वा प्रयोगः एतत् ल्यप् बन्धः सेम् कण्डिशन् बट् इट् विल् कम् इन् अ डिफ्रेण्ट् वे सो हस्तः प्रक्षाल्य इति न आगच्छति हस्तं प्रक्षाल्य इति आगच्छति सो दिस् इस् फर् अन् एक्साम्पल् आफ् वेर् अण्ड् आल् कर्मपदं विल् कम् नेक्स्ट् वन् इस् छात्राः पाठं पठितुं विद्यालयं गच्छन्ति यदा तुमुन् प्रयोगः पठितवन्तः खलु अहं गन्तुम् इच्छामि अहं श्रोतुं सङ्गीतं श्रोतुम् इच्छामि अहं मम सखीं मेलितुम् इच्छामि इति ऐ वाण्ट् टु डू दिस् तत् वयं पठितवन्तः तुमुन् प्रयोगे अहं प्रातःकाले भ्रमणार्थं भ्रमणं कर्तुम् इच्छामि ऐ वाण्ट् टु गो फर् अ वाक् भ्रमणं कर्तुं गतवती उद्यानं गतवती तत्र ऐ वेण्ट् फर् दिस् टु डू दिस् तत्तुमुन् प्रयोगः तत्रापि द्वितीया विभक्ति एव आगच्छति छात्राः पाठं पठितुं विद्यालयं गच्छन्ति बालिका पाठं पठन्ती एव निद्रां कृतवती अत्र फोर्त् वर्ड् बालिका पाठं पठन्ती एव निद्रां कृतवती इति अस्ति पठन्ती किम् इति किञ्चित् सन्देहम् आगच्छति कोऽपि वदति वा जानाति वा पठन्ती
ओन्लि हेविङ्ग् आफ्टर् हेविङ्ग् रेड्
न किं तत्
कण्टिन्यूस् टेन्स्
हा कण्टिन्यूस् टेन्स् तत् शानच् प्रत्ययः इति नाम इट् इस् लैक् पठन्ति मीन्स् वेन् द स्त्रीलिङ्गाकं पठन्ति पुल्लिङ्गा मीन्स् पठन् हू एवर् इस् नाट् नोन् डोण्ट् टेक् इट् सीरियस्लि अण्ड् डोण्ट् गेट् कन्फ्यूस्ड् जस्ट् लीव् इट् एस् आफ् नौ हू आलरेडि नो जस्ट् रिवैस् इट् एतत् न इदानीं न जानन्ति चेत् दोषः नास्ति इट् इस् जस्ट् समथिङ्ग् एक्स्ट्रा दे हेव् गिवन् चिन्ता डोण्ट् गेट् कन्फ्यूस्ड् एतत् स्वतन्त्रम् इति नाम स्वतन्त्रं शत्रुप्रत्ययः इति नाम अस्ति. इदानीं तत् अभ्यासः अस्ति, अधः अभ्यासः अस्ति. सर्वेषां हस्ते पुस्तकमस्ति इति अहं मन्ये, एक्सेप्ट् मधुरिका भगिनी. आल् हेड् गाट् युर् बुक्स् रैट्?
नो भगिनि,
नो भगिनि, नो.
पारुल् भगिनी किमपि उक्तवती खलु आर्डर् कृतवती इति. का
कोरियर् न आगच्छति?
ओ कशोभा भगिनी वा,
अहं हाङ्काङ्ग् वासे वसामि भगिनि.
न न, अहं जानामि, परन्तु भवती उक्तवती खलु अहं मम पुत्रीं वदामि. ओके, you need to ask some of your friends or relatives to buy a book.
Okay. But then even then post will take 2-3 weeks.
No, no, that's what you post. You let them post it, but in between you can scan your own copy.
Okay, okay.
They can just take it, or 1 or 2 pages, whatever they are reading now, you can do that. Okay. And okay, just as a mark of respect, you donate something, yes, for Samskrita Bharati.
Okay, sure.
So it is for all of you. If whenever you are using PDF, because these books are costing around 25-30 rupees. So actually, but there is a lot of work going on to build the book. They are spending Jagannath Hegde Mahodaya iti asti. He used to work till every day 1 a.m. And they create lot of books, and they don't do anything for profit. So when they are using that, just you can do whatever contribution. I will send, some people were asking me that number. Either you can send me, I can submit and I can get you the receipt, or you can directly transfer. I'll send their account number also, and you can just let me know so that I can get you a receipt from there. I go there every week. I can get it.
Thank you for giving.
Bagini, yeah,
you would like
Bagini, how to send you, Bagini, how to send you, because I wanted to donate some money. How to send
you? Okay, you can, you are in Bangalore, no, you can transfer to some Samskrita Bharati account only. I'll give you that
directly.
You can directly do it. If some people are not able to do directly, then I can get it a receipt, send it and get a receipt for you.
Okay, I will.
Whoever is here, you can directly do it, So that's why, and it is now illegal to make a copy of it, electronic copy of it. So that's why we don't share any of the PDF. But whatever is available, like the Shabda Rupam, whatever is already available, we are using those Shabda Rupas. But we are not supposed to share anything else. But the people who are outside India, you ask your family or friends to get a book from here and just make your own PDF, use it. And don't share it with any other. If you have a PDF, don't forward to your friends. Otherwise, all these illegal things just going, and people are making so much of money out of it. But we actually wanted to do it for free. But these things are, after some time, it went in a different way. That's why these restrictions have come. So, Bhavanta Haste Idanim Pustakam Nasti Chet Chinta Mastu. कर्मपदस्य अभ्यासं गूगल् मध्ये अधिकमस्ति, तत् कुर्वन्तु. तस्य हस्ते पुस्तकमस्ति, अत्र अभ्यासः दत्तमस्ति. किञ्चित् अभ्यासः अस्ति, भवती डेश् ज्ञात्वा अग्रे पठतु इति. कानिचन 25 वाक्यानि सन्ति, तत्र अभ्यासः समानसप्ताहे एव, सेम् वीक् ट्रै टु फिल् अप् दिस् यदा आगच्छति. यावत्पर्यन्तम् एकवचनमस्ति, ऐ विल् टेल् यु टिल् 11 एकवचनमस्ति. डू द अभ्यासः ओन्लि टिल् 11. बहुवचनम् अहं वदामि, वन् वी रेड् ऐ टेक् द क्लास् देन् यू केन् डू इट्. अस्तु वा?
bhagini
astu bhagini
bhagini still 11 we have not received
sir, the what is the page yet. Number madam
number 2 page number 2 अत्र भवती विषयं ज्ञात्वा अग्रे पठतु भगिनि मद्रिका भगिनि किमपि उक्तवती
नो ऐ एम् विजया भगिनि
विजया साक्षमिदं
भगिनि केन् यु सेण्ड् अस् टिल् 11 द होम्वर्क् बिकास् आर् बुक् इस् नाट् येट् कम् बै पोस्ट् देन् वी केन् डु द होम्वर्क् only that much
copy. Yeah that's what I said if you don't have a book don't worry just in google you can type any karma padam exercise
okay
dvitiya vibhakti exercise iti type karoto
okay
you get lot of exercise
aham preshayami bagini
na tat aham karoti kalo
whatsapp
na na bagini that's what I was all this time telling the content of book should not be forwarded
okay
All this time I was explaining that only. That became illegal now.
Okay.
Bhagini, you can search for Dvitiya Vibhakti.
Yes.
Exercise. You will get so many exercises in Google. You can use that.
Okay. Thank you.
In fact, that's why now they are finding out the... the sources and they are taking action against them. Now it became illegal. And also I tell you that the people who are outside, you along with this Vibhakti Vallari book, you get your Gita Sopanam book and make it shipped. So that you will receive it in 2-3 weeks time. By the time we complete Vibhakti Vallari, you will get a physical copy of your Gita Sopanam also. Because online PDF and all, it's very difficult to do. We'll have lot of exercise in Gita Sopanam to write.
Okay, ma'am.
So you should have a physical copy of it. Then only it is easy. If somebody, some of your relatives order, they will get it inside India. It will come within 3-4 days. So they can easily courier it.
Just one book?
Gita Sopanam. Yeah. It is Gita Sopanam Prathama Bhagaha, first. I will send the cover also just for identification.
Okay.
So you can ask your family to get it in India because it is very, they don't ship it to outside. Gita Sopanam is only for India. The shipping is not available for outside. I checked with my teacher. But someone can get it and they can ship it because the parcel and other things are different. So they don't want to do it. They said anyone can get it and then they can courier it. Or in the group, someone can do it for you. You just approach them. So that you will get it in 3 weeks time.
Thank you, ma'am.
Vibhakti Vallari and Gita Sopanam, you can order and get it. But try to have a physical book. You can write it. We'll do Dvitiya, Dvivachanam. अभ्यासः द्विवचनस्य अभ्यासः अत्र न दत्तम् अस्ति दे हेव् नाट् गिवन् द्विवचनस्य अभ्यासः परन्तु वि विल् ट्रै टु डु आन् अवर् ओन् ओके किम् अर्थम् इत्युक्ते अधिकं द्विवचनः अभ्यासः नास्ति इति कारणात् ते युश्लि डोण्ट् गिव् इट् अण्ड् इट् इस् सेम् लैक् प्रथमा एव अहम् एक उदाहरणं वदामि रामं रामौ रामान् इति अस्ति खलु अत्र पुस्तके अपि नास्ति इट् इस् नाट् देर् इन् युर् बुक् यु डोण्ट् नीड् टु सर्च् शृणोतु केवलं रामः रामौ रामः रामं रामौ रामान् इति अस्ति कदा एतत् उपयोगं भवति वेन् ऐ गो टु टु प्लेस् वेन् ऐ रैट् टु लेसन् वेन् ऐ डु टु थिङ्ग्स् फार् एक्साम्पल् इदानीम् उदाहरणं रामम् इति पुल्लिङ्गशब्दं मात्रम् उपयोगं कुर्मः इदानीं प्रथमं अहं विद्यालयौ गच्छामि ऐ गो टु टु स्कूल् अहं विद्यालयौ गच्छामि ऐ गो टु टु शाप् अहम् आपणौ गच्छामि I can use other word pulling strilinga also, but first I want to clear with only pulinga shabdah. I read two subjects, maths and science. Aham patau patami. Tatra punaha pashyatu aham patami ekavachanam eva. But there are two lessons, so aham patau patami iti agacchati. Anantaram aham स्यूतः देर् आर् टु बेग्स् अहं स्यूतौ नयामि अहम् ऐ सी टु मिरर्स् फ्रण्ट् अण्ड् बेक् अहं दर्पणौ पश्यामि ऐ लैट् टु लेम्प्स् अहं दीपौ ज्वालामि अहं हस्तं प्रक्षालयामि ऐ वाश् मै हेण्ड् But we always wash two hands, no, together. Aham hastau prakshalayami. Padaha. Padau prakshalayami. I wash my eyes. Shantam. Netram aham na upayam karami. I have two shoulders. Aham skandau baram vahami. In my shoulders I carry it. Skandau baram vahami. I use only pulling a shabda. Any doubts here?
So there is no need to say she. Like...
Yeah. This is anyway. Yeah. No need to. Kandau. Padau. Au. Agachati chit dvi. Tu iti.
Yeah.
Bhavantaha prayatanam kurvantu idanim. Only pulling a. It's okay, you can repeat whatever I said, but vakyani vadat. Vadant. Shamita?
Aham vadami vadani.
Vadat bhagini, kripaya.
Aham rasa golakau kadami.
सम्यक् रसगोलकौ खादामि हा पुल्लिङ्गमात्रं वदतु सर्वे
अहं वदामि भगिनि
पुस्तकं
वदतु रमा भगिनी वदतु अनन्तरं सुजया भगिनी
अहं स्यूतौ पुस्तकं नयामि
सम्यक् समयतया स्यूतौ पुस्तकानि नयामि इन् टु टु बेग् टु बुक् मल्टिपल् बुक्स् नु
अहं कार्यालयौ गच्छामि
आं सम्यक् कार्यालयौ गच्छामि हा अनन्तरम् अन्य
अहं वृक्षौ पश्यामि
देयर् इस् सम् बेक्ग्रौण्ड् सौण्ड् कमिङ्ग् वेर् एवर् इट् इस् केन् यु म्यूट् प्लीस् वृक्षौ पश्यामि सम्यक् अनन्तरं कौशल्या भगिनी
बालकः देवालयौ गच्छति
आम् बालकः देवालयः पारुल् भगिनी
चमसौ खादामि
सम्यक् अनन्तरं लक्ष्मी भगिनी शोभा भगिनी अन्यः के के न उक्तवन्तः
अहं चषकौ क्रीणामि
आं सम्यक् चषकौ क्रीणामि पश्यतु अहं पार्वती परमेश्वरौ नमस्करोमि तत्र एकं इट् मे बि कन्फ्यूसिङ्ग् रामलक्ष्मणौ नमस्करोमि तत्र एकं तु समस्या आगच्छति इफ् इट् इस् स्त्रीलिङ्ग एण्ड् देन् पुल्लिङ्ग इफ् इट् इस् मिक्स्ड् जेण्डर् वाट् शुड् ऐ यूस् पार्वती परमेश्वरः इति अस्ति खलु यु आल्वेस् पुट् यु नीड् टु पुट् एवेण्ट् फर् विभक्तिप्रयोगः यु नीड् टु पुट् पुल्लिङ्ग अट् द एण्ड् एण्ड् यूस् ओन्ली पुल्लिङ्ग शब्दः पार्वती इति ईकारान्तशब्दः इति न आवश्यकं पार्वती परमेश्वरः सीतारामौ इति एव आगच्छति. सीता रामः अस्ति तदा सीतारामौ, रामलक्ष्मणौ, भीमार्जुनौ इति आगच्छति. तत्सर्वं वयं पुनः गीतासोपाने पठामः, इदानीं किञ्चित् विभक्तिश्यं ज्ञात्वा तत्र गच्छामः. एवमपि वक्तुं शक्नुमः, यु केन् मेक् एनी पेर्स् आल्सो. प्रयत्नं कुर्वन्तु. वदन्ति वा?
हरि
ओं.
रमेशः, सतीशौ, ऐ वाण्ट् टु से दे आर् ब्रदर्स्, रमेश् अण्ड् सतीश् आर् ब्रदर्स्.
अत्र किमपि कार्यं नास्ति खलु?
ओ,
रमेशः, गणेशः च भ्रातरः.
ओ, ओके ओके.
अहं वदामि भगिनि, अहं वदामि भगिनि. माला गोविन्दौ उद्यानं गतवन्तः.
माला गोविन्दौ उद्यानं
गतवन्तः.
देन् वन् मोर् थिङ्ग् अनु भगिनी यदा उक्तवती गोविन्दः इति, वेन् यु टेल् द फस्ट् वर्ड् नो, तत्र यदा द्वितीयाविभक्तिः वदति गोविन्दः प्रथमाविभक्तिः, तत् न आवश्यकं. माधव गोविन्दौ पाठं पठन्ति.
माला गोविन्दौ उद्यानं गतवन्तः, इस् इट् ओके?
अहं उक्तवती विसर्गस्य आवश्यकं नास्ति इति. रामलक्ष्मणौ एव, रामः इति न आवश्यकं, रामलक्ष्मणौ. अन्य कोऽपि प्रयत्नं करोति वा? एवं पेर् कुर्वन्तु.
अहं वदामि. अहं श्रुति श्वेत्यौ प्रियं ददामि. मम द्वे पुत्रौ, पुत्री, टु डाटर्स्. मम अहं श्रुति श्वेत्यौ प्रियं ददामि.
तथा नाम किं, पूर्णनाम वदतु.
श्रुति
श्वेता,
श्वेता, श्वेता.
स्त्रीलिङ्गं खलु, यद् भिन्नं भवति. वि हव् नाट् यट् सीन्.
अहं वदामि वा?
एकनिमिषं. पुत्रः चेत् आगच्छति, पुत्री चेत् भिन्नं भवति. अहम् अनन्तरं वदामि पुत्रविषयं. बट् यु केन् मिक्स् टु जेण्डर्स्. वदतु पार्वति.
अहं सूर्यचन्द्रौ नमामि.
आं सम्यक्, सूर्यचन्द्रौ नमामि. पश्यतु अनु भगिनी, इदानीम् अहं, मम एकपुत्रः, पुत्री अस्ति, अहं पुत्री पुत्रौ मधुरं ददामि इति एव वदामि. बट् इफ् यु हेव् टु बोत् अर् डाटर्, देन् यु नीड् टु यूस् द द्विवचनम् आफ् स्त्रीलिङ्गं. तत् वयं न पठितवन्तः, पठामः. अन्यः इतोपि निमिषद्वयमस्ति.
अहं कृष्णरामौ पूजां करोमि.
सम्यक्, कृष्णरामौ पूजां करोमि. तत्र कृष्णरामौ अपि द्विवचनं, द्वितीयाविभक्ति. पूजाम् अपि एकवचनं, द्वितीयाविभक्ति. सो वि यूस् टु द्वितीयाविभक्ति इन् सेम् सेण्टेन्स्. देट् इस् आल्सो पासिबल्. यु केन् यूस् मल्टिपल् विभक्तिस् इन् वन् सेण्टेन्स्. अनन्तरं
भगिनी, वी केन् से यस् भगिनी, अहं राधाकृष्णौ पूजनं करोमि.
पूजां
करोमि.
राधाकृष्णौ ध्यायामि. किमपि ध्यायामि.
सीतारामौ वनं गतवन्तौ.
हा सीतारामो वनौ वनं गत किमागच्छति तत्र गच्छ गतवन्तौ गतवन्तौ अन्य कोऽपि वदति वा
गीता गोविन्द अहं गीता गोविन्दौ देवालयं गच्छामि
नयामि आनयामि ऐ टेक् देम् करेक्ट्
नो गीता गोविन्दौ देवालयौ
नौ वाट् डु यु वाण्ट् टु से टेल् मी इन् इङ्ग्लिश्
I went to Gita Govinda two temples.
Oh, two temples. Yeah, okay. Ha.
So how do I say that?
Aham Gita Govinda ho. Devalayau gatavati. So there are two vibhaktis there. Gita Govinda, or you can say Aham Gita Govinda Devalayau gatavati. Eka vakyam. दीर्घ गीतगोविन्ददेवालयौ गतवती
भगिनि
एकनिमिषं लक्ष्मी भगिनी वदतु
In my sentence, Mala Govindau, Udyanam, Gatavantaha, I said Gatavantaha. Is it Gatavantau?
It is Gatavantau, and what you said, Gita Govindau is a Kartrupadam, subject.
Mala Govindau, Udyanam,
Gatavantaha. That is not a Dvitiya Vibhakti. That is not Dvitiya Vibhakti, no? It is a Prathama Vibhakti only.
उद्यानम् इस्
यु नीड् टु यूस् उद्यानम् एकमेव खलु उद्यानौ इति वदति चेत् एवं वदतु गीतगोविन्दौ उद्यानौ गतवन्तौ
अदर्वैस् उद्यानं गतवन्तः इस् इट् ओके
तत् एकवचनं न
बहुवचनं
बहुवचनं एकवचनं
उद्यानम् एकवचनं
गतवन्तः
गतवन्तौ गतवन्तौ इति वक्तव्यं
गतवन्तौ ओके
आम्
आम्
परन्तु अत्र कर्मपदे द्विवचनम् उपयोगं करोति चेत् कथम् आगच्छति वदतु एकवाक्यं कर्मपदं द्विवचनरूपं
उद्यानं उद्यानाः माला गोविन्दौ उद्यानाः गतवन्तः
उद्यानानि गतवन्तलिङ्गम् उद्याने गतवन्तः द्विवचनं उद्याने द्विवचनं नपुंसकलिङ्गम् अस्तु देवालयौ इति विद्यालयौ इति स्थापयतु बिकास् वि आर् प्राक्टिसिङ्ग् ओन्ली पुल्लिङ्गशब्दः अस्तु अग्रे वदतु
गणेश गौरी शिवौ परिक्रमा करोति
तत्र त्रीणि अधिकद्वयं पर्याप्तम् two words madrika bagni
I did gauri shivo right ganesha gauri shivo parikrama karoti
parikrama krama tatra parikramam parikramanam karomi tatra ekam dvayam eva paryaptam gauri shivo iti vadato athava ganesha shivo iti vadati only two are fine
Okay, I wanted to say that Ganesh is going around Gauri and Shiv.
Oh, Ganesha, huh?
Ah.
Gauri Shivau.
Yeah.
परिक्रमणं करोति
करोति
सम्यक् एव अहं चिन्तितवती त्रि इति अस्तु सम्यक् अग्रे अन्य कोऽपि उक्तवती दट् बि द लास्ट् वन्
अहं नीलः पाटलौ वर्णं शाटिकाम् इच्छामि
इदानीं सम्यक् परन्तु तत् विशेषणविशेषाणि इति आगच्छति वर्ण विषये शाटिका स्त्रीलिङ्गम् अतः नीली पाटला इति आगच्छति तत् अनन्तरं पश्यामः इदानीं सम्यक् नील पाटलौ वर्णौ शाटिकाम् इच्छामि सम्यक् सुजया भगिनी वदतु
न भगिनि अहं
सुजया भगिनी
मैन् इस् ओवर् मैन् इस् ओवर् मैन् इस् ओवर्
अस्तु 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 एतत् अभ्यासं कुर्वन्तु आगामिसप्ताहे बहुवचनं द्वितीयाविभक्ति बहुवचनं पश्यामः अस्तु वा सर्वे भवन्तु सुखिनः अहं म्यूट् करोमि सर्वान् अनन्तरम् अहं वदामि सर्वे अनुवदन्तु सर्वे भवन्तु सुखिनः
सर्वे भवन्तु सुखिनः
सर्वे पत्राणि पश्यन्तु
सर्वे पत्राणि पश्यन्तु
मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः